पञ्चवट्यां ततो रामः शासनात् कुम्भजन्मनः अनपोढस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव
पञ्चवट्याम् इति ततो रामः कुम्भजन्मनः अगस्त्यस्य शासनात् पञ्चानां वटानां समाहारः पञ्चवटी तद्धितार्थ इति तत्पुरुषः संख्यापूर्वो द्विगुः इति द्विगुसंज्ञायां द्विगोः इति ङीप् द्विगुरेकवचनम् इत्येकवचनम् तस्यां पञ्चवट्यां विन्ध्याद्रिः प्रकृतौ वृद्धेः पूर्वावस्थायाम् इव अनपोढस्थितिः अनतिक्रान्तमर्यादः तस्थौ
रावणावरजा तत्र राघवं मदनातुरा अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम्
रावणावरजेति तत्र पञ्चवट्यां मदनातुरा रावणावरजा शूर्पणखा पूर्वपदात्संज्ञायामगः इति णत्वं राघवं निदाघार्ता घर्मतप्ता व्याकुला व्याली भुजङ्गी मलयद्रुमं चन्दनद्रुमम् इव अभिपेदे प्राप
सा सीता सन्निधावेव तं वव्रे कथितान्वया अत्यारूढो हि नारीणाम् अकालज्ञो मनोभवः
सेति सा शूर्पणखा सीतासन्निधावेव कथितान्वया कथितस्ववंशा सती तं रामं वव्रे वृतवती तथा हि अत्यारूढः अतिप्रवृद्धः नारीणां मनोभवः कामः कालज्ञः अवसरज्ञः न भवतीति अकालज्ञो हि
कलत्रवानहं बाले कनीयां संभजस्व मे इति रामो वृषस्यन्तीं पुरुषस्कन्धशशासताम्
कलत्रवानिति वृषः पुमान् वृषस्याद्वासवे धर्मे सौरभेये च शुक्रले पुंराशिभेदयोः शृङ्ग्याम् मूषकश्रेष्ठयोरपि इति विश्वः वृषम् पुरुषम् आत्मार्थम् इच्छतीति वृषस्यन्ती कामुकी वृषस्यन्ती तु कामुकी इत्यमरः सुप आत्मनः क्यच् इति क्यच् प्रत्ययः अश्वक्षीरवृषलवणानाम् आत्मप्रीतौ क्यचि इति असुगागमः ततो लटः शत्रादेशः उगितश्च इति ङीप् श्लोकार्थस्तु वृषस्कन्धो रामो वृषस्यन्तीं ताम् राक्षसीम् हे बाले अहम् कलत्रवान् मे कनीयांसम् कनिष्ठम् भजस्व इति शशास आज्ञापितवान्
ज्येष्ठाभिगमनात् पूर्वम् तेनाप्यनभिनन्दिता सा भूत् रामाश्रया भूयः नदीवो भयकूलभाक्
ज्येष्ठेति पूर्वम् ज्येष्ठाभिगमनात् तेन लक्ष्मणेनापि अनभिनन्दिता नाङ्गीकृता भूयः रामाश्रया सा राक्षसी उभे कूले भजतीति उभयकूलभाक् नदीव अभूत् सा हि यातायाताभ्याम् पर्यायेण कूलद्वयगामिनी नदीसदृशी अभूदित्यर्थः
संरम्भम् मैथिलीहासः क्षणसौम्याम् निनायताम् निवातस्तिमिताम् वेलाम् चंद्रोदय इवो दधे।
संरम्भमिति मैथिलीहासः क्षणम् सौम्याम् सौम्याकाराम् ताम् राक्षसीम् निवातेन स्तिमिताम् निश्चलाम् उदधेः वेलाम् अम्बुविकृतिम् अम्बुपूरम् इत्यर्थः। अब्ध्यम्बुविकृतौ वेला इत्यमरः। चन्द्रोदय इव संरम्भम् संक्षोभम् निनाय।
फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् मृग्याः परिभवो व्याघ्र्याम् इत्यवेहि त्वया कृतम्।
फलमिति श्लोकद्वयेन अन्वयः। अस्य उपहासस्य फलम् सद्यः सम्प्रत्येव प्राप्स्यसि। माम् पश्य, त्वया कर्त्र्या कृतम् उपहासरूपम् करणम् व्याघ्र्याम् विषये मृग्याः कर्त्र्याः परिभवः इत्यवेहि।
इत्युक्त्वा मैथिलीम् भर्तुः अङ्के निविशतीम् भयात् रूपम् शूर्पणखानाम् नः सदृशम् प्रत्यपद्यत।
इतीति भयात् भर्तुः अङ्के निविशतीम् आलिङ्गन्तीम् मैथिलीम् इत्युक्त्वा शूर्पणखा नाम्नः सदृशम् शूर्पाकारनखयुक्तम् इत्यर्थः। रूपम् आकारम् प्रत्यपद्यत स्वीचकार अदर्शयत् इत्यर्थः।
लक्ष्मणः प्रथमम् श्रुत्वा कोकिला मञ्जुवादिनीम् शिवाघोरस्वनाम् पश्चात् बुबुधे विकृतेति ताम्।
लक्ष्मण इति लक्ष्मणः प्रथमम् कोकिलावत् मञ्जुवादिनीम् पश्चात् शिवावत् घोरस्वनाम् ताम् शूर्पणखाम् श्रुत्वा तस्याः स्वनम् श्रुत्वा इत्यर्थः। सुस्वनः शङ्खः श्रूयत इतिवत् प्रयोगः। विकृता मायाविनीति बुबुधे बुद्धवान्। कर्तरि लिट्।
पर्णशालामथ क्षिप्रम् विकृष्टासिः प्रविश्य सः वैरूप्यपौनरुक्त्येन भीषणाम् तामयोजयत्।
पर्णशालामिति अथ सः लक्ष्मणः विकृष्टासिः कोशोद्धृतखड्गस्सन् क्षिप्रम् पर्णशालाम् प्रविश्य भीषयतीति भीषणाम्। नन्द्यादित्वात् ल्युट् कर्तरि। ताम् राक्षसीम् वैरूप्यस्य पौनरुक्त्यम् द्वैगुण्यम् लक्षणया तेन अयोजयत् योजितवान्। स्वभावत एव विकृतान्ताम् कर्णादिच्छेदेन पुनः अतिविकृताम् अकरोत् इत्यर्थः।
सा वक्रनखधारिण्या वेणुकर्कशपर्वया अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे।
सेति सा वक्त्रनखम् धारयतीति वक्त्रनखधारिणी। तया वेणुवत् कर्कशपर्वया अत एव अङ्कुशस्य आकार इव आकारो यस्यास्सा तया। अङ्गुल्या तौ राघवौ अम्बरे व्योम्नि स्थिता अम्बरम् व्योम्निवाससि इत्यमरः। अतर्जयत् अभर्त्सयत्। तर्जभर्त्सने इति धातोः चौरादिकात् अनुदात्तेत्वात् आत्मनेपदेन भाव्यम्। तथापि चक्षिङो नित्करणात् ज्ञापकात् अनुदात्तेत्वनिमित्तस्य आत्मनेपदस्य अनित्यत्वात् परस्मैपदम् ऊह्यम् इत्युक्तम् ఆఖ్యాతచంద్రికాయాం తర్జయతే భత్సయతే తర్జయతీత్యపి చ దృశ్యతే కవిషు ఇతి.
ప్రాప్య చాశు జనస్థానం ఖరాదిభ్యస్తథావిధం రామోపక్రమమాచఖ్యౌ రక్షః పరిభవం నవం.
ప్రాప్యేతి సా ఆశు జనస్థానం ప్రాప్య ఖరాదిభ్యః రాక్షసేభ్యః తథావిధం స్వాంగచ్ఛేదాత్మకం ఉపక్రమ్యతే ఇత్యుపక్రమః. కర్మణి ఘై ప్రత్యయః రామస్య కర్తుః ఉపక్రమః రామోపక్రమం. రామేణ ఆదౌ ఉపక్రాంతమిత్యర్థః. ఉపజ్ఞోపక్రమం తదాద్యాచిఖ్యాసాయాం ఇతి క్లీబత్వం. తన్నవం రక్షసాం కర్మభూతానాం పరిభవం ఆచఖ్యౌ చ.
ముఖావయవలూనాం తాం నైర్తాయత్ పురోదధుః రామాభియాయినాం తేషాం తదేవాభూదమంగళం.
ముఖేతి నైరుతాః రాక్షసాః నైరుతో యాతు రాక్షసీ ఇత్యమరః. ముఖావయవేషు కర్ణాదిషు లూనాం ఛిన్నాం తాం పురః దధుః అగ్రే చక్రురితి యత్తదేవ రామాభియాయినాం రామం అభిద్రవతాం తేషాం అమంగళం అభూత్.
ఉదాయుధానాపతతః తాన్ దృప్తాన్ ప్రేక్ష్య రాఘవః నిదధే విజయాశంసాం చాపే సీతాం చ లక్ష్మణే.
ఉదితి ఉదాయుధాన్ ఉద్యతాయుధాన్ ఉదాయుధాను ఉద్యతాయుధాన్ ఉదాయుధాన్ ఉద్యతాయుధాన్ ఆపతతః ఆగచ్చతః దృప్తాన్ తాన్ ఖరాదీన్ ప్రేక్ష్య రాఘవః చాపే విజయస్య ఆశంసాం ఆశాం లక్ష్మణే సీతాం చ నిదధే. సీతారక్షణే లక్ష్మణం నియుజ్య స్వయం యుద్ధాయ సన్నద్ధ ఇతి భావః.
ఏకో దాశరథిః కామం యాతుధానా సహస్రశః తే తు యావంత ఏవాజౌ తావాంశ్చ దదృశే సతైః.
ఏక ఇతి దాశరథీ రామః దాశరథీ రామః ఓకే దాశరథిః రామః ఏకః అద్వితీయః. యాతుధానాః కామం సహస్రశః సంతీతి శేషః. తైః యాతుధానైస్తు స రామః ఆజౌ తే యాతుధానాః యావంతః యావత్సంఖ్యాకాః ఏవ తావాన్ తావత్సంఖ్యాకశ్చ దదృశే.
అసజ్జనేన కాకుత్స్థః ప్రయుక్తమథ దూషణం న చక్షమే శుభాచారః సదూషణమివాత్మనః.
అసజ్జనేనేతి అథ శుభాచారః రణే సాధుచారీ సద్వృత్తశ్చ సద్వృత్తశ్చ సః కాకుత్సః అసజ్జనేన దుర్జనేన రక్షోజనేన చ ప్రయుక్తం ప్రేషితం ఉచ్చారితం చ దూషణం దూషణాఖ్యం రాక్షసం ఆత్మనః దూషణం దోషమివ న చక్షమే న సేహే. ప్రతికర్తుం ప్రవృత్త ఇత్యర్థః.
తం శరైః ప్రతిజగ్రాహ ఖరత్రిశిరసౌ చ సః క్రమశస్తే పునస్తస్య చాపాత్సమమివోద్యయుః.
तमिति सः रामः तं दूषणं करत्रिशिरसौ च शरैः प्रतिजग्राह प्रतिजहारेत्यर्थः क्रमशः यथाक्रमं प्रयुक्ता अपीति शेषः तस्य ते शराः पुनः चापात्समं युगपत् इव उद्ययुः अतिलघुहस्त इति भावः
तैस्त्रयाणां शितैर्बाणैः यथा पूर्वविशुद्धिभिः आयुर्देहातिगैः पीतं रुधिरं तु पतत्रिभिः
तैरिति देहम् अतीत्य भित्त्वा गच्छन्तीति देहातिगाः तैः यथास्थिताः पूर्वविशुद्धिः येषां तैः अतिवेगत्वेन देहभेदात् प्रागिव रुधिरलेपरहितैः इत्यर्थः शितैः तीक्ष्णैः तैर्बाणैः त्रयाणां खरादीनाम् आयुः पीतम् रुधिरं तु पतत्रिभिः पीतम्
तस्मिन् रामशरोत्कृत्ते बले महति रक्षसाम् उत्थितं ददृशेऽन्यच्च कबन्धेभ्यो न किञ्चन
तस्मिन्निति तस्मिन् रामशरैः उत्कृते छिन्ने महति रक्षसां बलः रक्षसां बले उत्थितं उत्थानक्रियाविशिष्टं प्राणिनां कबन्धेभ्यः शिरोहीनशरीरेभ्यः कबन्धोस्त्रीक्रियायुक्तम् अपमूर्थकलेवरम् इत्यमरः अन्यच्च अन्यत्किञ्चन न ददृशे कबन्धेभ्यः इत्यत्र अन्यारात् इति पञ्चमी निःशेषम् हतम् इत्यर्थः
सा बाणवर्षिणम् रामम् योधयित्वा सुरद्विषाम् अप्रबोधाय सुष्वाप गृध्रच्छायेव रूथिनी
सेति सा सुरद्विषाम् वरूथिनी सेना बाणवर्षिणम् रामम् योधयित्वा युद्धम् कारयित्वा गृध्राणाम् छाया गृध्रच्छायम् छायाबाहुल्ये इति क्लीबत्वम् तस्मिन् अप्रबोधाय अपुनर्बोधाय सुष्वाप ममारेत्यर्थः अत्र सुरतश्रान्तकान्तासमाधिः ध्वन्यते